अथ लोकपाल पूजा कूर्चस्योपरि
अस्मिन् कूर्चे लोकपालकम् सरस्वती ब्रह्मानम् ध्यायामि आवाहयामि भो सरस्वती समेत ब्रह्मन् इह आगच्छ इह तिष्ठ मम पूजाम् गृहाण अस्मिन् कूर्चे लक्ष्मी समेतम् महाविष्णुम् ध्यायामि आवाहयामि अस्मिन् कूर्चे श्रीदुर्गा समेतम् त्र्यम्बकरुद्रम् ध्यायामि आवाहयामि इह आगच्छ इह तिष्ठ मम पूजाम् गृहाण अस्मिन् कूर्चे भूमिदेवी समेतम् क्षेत्रपालकम् ध्यायामि आवाहयामि ब्रह्मादीन् लोकपालकदेवताभ्यो नमः आसनम् समर्पयामि पाद्यम् समर्पयामि अर्घ्यम् समर्पयामि एते गन्धाक्षत पत्रपुष्प धूपदीपादि सकलाराधनैस्वर्चितम् ब्रह्मादिलोकपालकदेवताभ्यो नमः यथा भागम् कदलीफलम् निवेदयामि आम्बूलम् समर्पयामि
कर्पूरनीराजनम्
ब्रह्मादिदेवताभ्यो नमः सर्वापराधनिवृत्त्यर्थम् कर्पूरनीराजनम् दर्शयामि समस्त उपचारान् समर्पयामि
प्रार्थ्य
विघ्नेश्वरम् नमस्कृत्य सृष्टिकर्त्रे नमस्कृत विष्णुरुद्रश्रियम् दुर्गाम् वन्दे भक्त्या सरस्वती क्षेत्रपालम् नमस्कृत्य नमस्कृत्य निशाकरम् धरणीगर्भसम्भूतम् शशिपुत्रम् बृहस्पतिम् दैत्याचार्यम् नमस्कृत्य रविपुत्रम् महाग्रहम् नमस्ते राहुकेतून् यज्ञारम्भे विशेषतः चक्राद्या देवताः सर्वाः ऋषीश्च प्रणमाम्यहम् गर्गम् मुनिम् नमस्कृत्य नारदम् ऋषिसत्तमम् वसिष्ठम् ऋषिशार्दूलम् विश्वामित्रम् भृगोः सुतम् व्यासम् ऋषिम् नमस्कृत्य आचार्यम् च तपोधनात् सर्वेषाम्श्च नमस्कृत्य यज्ञरक्षाकरान् सदा शङ्खचक्रगदाशार्ङ्ग पद्महस्ते जनार्दनः सर्वरक्षन्तु दिक्षेषु यावत्पूजावसानकम् ॐ श्रीं ह्रीं ऐं कुबेरलक्ष्म्यै कमलधारिण्यै धनाकर्षिण्यै स्वाहा ॐ यक्षेशाय च विद्महे वैश्रवणाय च धीमहि तन्नः श्रीधः प्रचोदयात्।